यथाब्देस्तरङ्गालयं यान्ति तुङ्गाः तथैवापदसन्निधौ सेवतां मे इति भूमिपङ्क्तिर्नृणां दर्शयन्तं सदा भावये हृत्सरोजे गुहं तं गिरौ मन्निवासे नराये धिरूढाः तथा पर्वते साजते ते धिरूढाः इति बभ्रुवा गन्धशैलाधिरूढः सदेवो मुदे मे सदा षण्मुखोऽसौ महाबोधितीरे महापापचोरे मुनीन्द्रानुकूले सुगन्धाख्यशैले गुहायां वसन्तं स्वभासालसन्तं जना किं हरन्तं श्रयामो गुहं तं लसत्स्वर्णगेः नृणां कामदोहे सुमस्तोमसञ्छन्न माणिक्यमञ्चे समूढ्य सहस्रार्कतुल्यप्रकाशं सदा भावये कार्तिकेयं सुरेशम्।